एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। लुम्बिनी प्रदेशस्य मुख्यमन्त्रिणी दिल्ली बहादुर चौधरी, गण्डकी प्रदेशस्य मुख्यमन्त्रिणी सुरेन्द्र राज पाण्डे च नियुक्तौ स्तः। नेपाली कांग्रेस दलस्य लुम्बिनी प्रदेश संसदीय दलस्य नेतारं दिल्ली बहादुर चौधरीणं प्रदेश प्रमुखः अम्बिका शेरचन यो मुख्यमन्त्रिणी अयुङ्क्त। नेपालस्य संविधानस्य अनुसारेण लुम्बिनी प्रदेशस्य अष्टानां दलानां द्वापञ्चाशतः एकस्य स्वतन्त्रस्य च प्रदेशसभा सदस्यानां समर्थनेन मुख्यमन्त्रिणे प्रस्तुत स्वत्व ज्ञापनः चौधरी मुख्यमन्त्रिणी नियुक्तो वर्तते। एवमेव नेपाली कांग्रेस दलस्य गण्डकी प्रदेश संसदीय दलस्य नेता सुरेन्द्र राज पाण्डे गण्डकी प्रदेशस्य मुख्यमन्त्रिणी नियुक्तोऽस्ति। नेपालस्य संविधानस्य अनुसारेण गण्डकी प्रदेशस्य पञ्चत्रिंशतः प्रदेशसभा सदस्यानां समर्थनेन मुख्यमन्त्रिणे प्रस्तुत स्वत्व ज्ञापनं पाण्डेभिधं प्रदेश प्रमुखः पृथ्वीमान गुरूङ गतदिने एव मुख्यमन्त्रिणं नियुक्तवान्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते भूमि सम्बद्धायां विद्यमान व्यवस्थायां क्रान्तिकारी निर्णयं कृत्वैव वर्षैः विद्यमानायाः समस्यायाः एकमुष्टरूपेण समाधानं सम्भवति। प्रधानमन्त्री प्रचण्डः राष्ट्रिय भूम्यायोगस्य पदाधिकारिणो ह्यो बालबाटार वर्तिनी प्रधानमन्त्री निवासे भूमि सम्बद्ध समस्यायाः समाधानस्य सर्वकारस्य गाम्भीर्यावलम्बनस्य हेतोः तदनुरूपेणैव कार्याणि सम्पादयितुं निरदिशत। प्रधानमन्त्री प्रचण्डः गृहभूमि हीनानाम् अव्यवस्थित रूपेण निवसताम् च जनानाम् समस्यायाः दीर्घकालिक रूपेण सम्बोधनात्मक कार्येषु प्राथमिकताम् दातुम् निरदिशत। असौ भोजनावासौ जनतायाः प्रथमावश्यकता स्थिति भासमाणः एतद् गभीरेण बुद्ध्वा कार्यम् सम्पादयितुम् निर्दिष्टवान्। प्रधानमन्त्री प्रचण्डः इतोप्यधिक परिश्रमेण अर्थतन्त्रस्य सुधाराय विकासस्य तीव्रता प्रदानत्वेन च कार्यं कर्तुं बलं प्रदात्। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य कार्यवाहक प्रधान न्यायाधीशस्य हरिकृष्ण कार्किणश्च मध्ये ह्यो मेलवार्ता सम्पन्ना। प्रधानमन्त्री कार्यालये सम्पन्ने तस्मिन् मेलने न्यायालयस्य आयव्ययकस्य भौतिक पूर्वाधाराणां मर्यादाक्रमस्य न्यायाधीशानां वेतनस्य न्यायपालिकया सह्यमानानां विभिन्नानां समस्यानां च विषयेषु कार्यवाहक प्रधान न्यायाधीशः कार्की विस्तरेण प्रधानमन्त्रिणं प्रचण्डम् अज्ञापयत्। प्रधानमन्त्रिणा सह उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठः, उपप्रधान विधि न्याय संसदीय विषय मन्त्री पूर्ण बहादुर खड्का, अर्थमन्त्री डाक्टर प्रकाश शरण महत, सर्वोच्च न्यायालयस्य वरिष्ठाः पञ्च न्यायाधीशाश्च सहभागिनः आसन्। तत्पूर्वं कार्यवाहक प्रधान न्यायाधीशेन न्यायाधीशैश्च सह ह्य एव उपप्रधान विधि न्याय संसदीय विषय मन्त्रिणा खड्काविदेन सह मिलित्वा सर्वकारेण न्यायालयाय विधातव्यस्य आवश्यक सहयोगस्य विषये विमृष्टम् आसीत्। कार्यवाहक प्रधान न्यायाधीश हरिकृष्ण कार्की कथयति सर्वोच्च न्यायालयेन विकासस्य गतिविधीनां वातावरण संरक्षणस्य च मध्ये सन्तुलनं सुनिश्चेतुं बहुवारं निर्णय विहितो वर्तते। न्यायिक प्रतिष्ठान नेपालेन ह्य आयोजितां वन संरक्षित क्षेत्र न्यायशास्त्र सम्बद्ध क्षेत्रीय गोष्ठीम् उद्घाटयन् असौ विकासस्य गतिविधिना वातावरणे हानि न प्रापणीयेति समस्पष्टयत्। कार्यवाहक प्रधान न्यायाधीश कार्की नेपाल न्यायपालिकाः तुलनात्मक रूपेण सर्वकारस्य प्राशासनिक निर्णयेभ्य निर्देशनस्य कार्ये अधिक सक्रियाः सन्तीति उदैरयत। दिनत्रयावधि सञ्चाल्यमानायाम् अस्याम् गोष्ठ्याम् नेपाल भारत पाकिस्तान बांग्लादेश भूटान मालदीव्स देशानां सम्बद्ध विषय विज्ञानां सहभागिता वर्तते। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति संचार सम्बद्धा समस्या शीघ्रं समाधास्यते। दाङ जनपदीयेन प्रेस सेन्टर संगठनेन ह्यो घोरा स्थाने आयोजिते पत्रकार सम्मेलने मन्त्री शर्मा अगदत् सर्वकारः विधि निर्माणस्य विषये गभीरो वर्तते। असौ अब्रवीत न्यून निवेशनेन अधिक प्रतिफल दातृणां योजनानां सम्बन्धे विमृश्यमानमस्ति। मन्त्री शर्मा अभाषत दाङ जनपदे संचार सञ्जालस्य समस्याग्रस्तं स्थान समाधानम ज्ञातुम संचार सम्बद्धम समस्याम समाधातुम च सर्वकारः पूर्वकार्यम कुर्वाणो वर्तते। सर्वकारस्य प्रवक्ता च मन्त्री शर्मा संक्रमणकालिक न्यायस्य निर्णयनस्य सीमा समस्याया समाधानस्य राज्यस्य शासन प्रणाल्याः व्यवस्थितीकरणस्य च विषयेषु सर्वदलीय सहमतेः सन्धरणत्वेन कार्याणि सम्पाद्यमानानि सन्तीति प्रावोचत। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री सुदन किराँती राष्ट्रिय ध्वजवाहकस्य नेपाल वायु सेवा निगमस्य सेवायां सुधाराय सर्वविधं समाहोयं प्रतिकर्तुम् आत्मनः तत्परता स्थिति भासते। नेपाल वायु सेवा निगमस्य वार्षिक समीक्षोपवेशे ह्यो मन्त्री किराँती आत्मनि केनचित् बलसहजनेन प्रभावो न सृज्यते इति भासमाणः निगमस्य सेवायाः सुधाराय सर्वविधाः प्रयत्नाः विधास्यन्ते इति प्रतिबद्धतां व्यक्तवान्। मन्त्री किराँती नेपाल वायु सेवा निगमस्य विकृतौ राजनीतिक नेतृत्वमेव दायित्ववाही वर्तते इति टिप्पणीम् अकरोत्। उपवेशे मन्त्री किराँती निगमस्य सुधाराय विहितायाः मौखिक प्रतिबद्धतायाः व्यावहारिक रूपेण क्रियान्वयनाय निगमस्य कर्मचारिणः अपि निरदिशत्। नेपाल बेलायत देशयोः द्विपक्षीय परामर्श संयन्त्रस्य षष्ठोपवेशः लण्डन नगरे सम्पन्नोऽस्ति। उपवेशे पक्षद्वयेन नेपाल बेलायत देशयोः सम्बन्धस्य समग्रावस्थायाः समीक्षया सह पारस्परिक हितस्य विभिन्न क्षेत्रेषु संलग्नतायाः वर्धनस्य विषये विमृष्टमिति लण्डनवर्तिना नेपाली दूतावासेन ज्ञापितं वर्तते। उपवेशे शताब्दीद्वयस्य पुरातन मित्रतायाः सहयोगस्य च विषये विचाराणाम् आदान प्रदानेन सहैव विकास सहयोग प्राथमिकता व्यापार निवेशन पर्यटन शिक्षा मानव संसाधन विकास द्विदेशीय सम्पर्क प्रवृत्तिषु द्विपक्षीय सम्बन्धस्य प्रमुख पक्षेषु विता प्रगति समीक्षितेति दूतावासेन ज्ञापितं वर्तते। एवमेव उपवेशे जनस्तरस्य सम्बन्धेन ब्रिटिश गोर्खा सैनिकानां विषयैः जलवायु परिवर्तनेन सबल विकासेन च सहैव बहुपक्षीय मञ्चे पारस्परिक हितस्य विषयेषु मिलित्वा कार्य सम्पादनस्य विषयेष्वपि विमृष्टम् आसीत्। उपवेशे भूतपूर्व गोर्खा सैनिकानां विषये विधीयमानायाः वार्तायाः समीक्षया सह तेषां वेदनायाः सम्बोधनार्थं विमर्शनाय नैरन्तर्यं प्रदातुं सहमतिः दृतास्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन डेंगू रोगस्य संक्रमणस्य नियन्त्रणाय अभियानं संचालयितुम् अनुरोधं वर्तते। मन्त्रालयेन गतदिने सार्वजनिक सूचनां प्रकाश्य प्रति शुक्रवासरं पूर्वाह्नस्य सार्धदशवादने दशकलाः इत्यभियानं संचालयितुम् अनुरोधमस्ति। सर्वे सर्वकारीयाः सार्वजनिकाश्च कार्यालयाः स्वस्य कार्यालयस्य परिसरस्य अभ्यन्तरे पार्श्ववर्ति भागेषु च सर्वान् कर्मचारिणः सहभागिनः कारयित्वा प्रति शुक्रवासरं पूर्वाह्नस्य सार्धदशवादने दशकला पर्यन्तम् अनिवार्य रूपेण स्वच्छीकरणाभियानं संचालयितुं सूचनायं ज्ञापिताः सन्ति। गतवर्षे डेंगू संक्रमणम् आधिक्येन प्रसिद्धम् इति ज्ञापनपूर्वकम् एतस्मिन् वर्षे यथासमयं सञ्चेतनायाः अवलम्बनाय अभियानमिदं संचालयितुं सर्वकारीय कार्यालयाः नैज संस्थाः सर्वसाधारण जनाः सम्बद्धाः सर्वे पक्षाश्च अनुरुद्धाः सन्तीति मन्त्रालयेन प्रकाशितायां सूचनायाम् उल्लिखितं वर्तते। कोरोना संक्रमणेन ह्यः एको जनः मृत इति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्यः सहस्रद्वयस्य सप्तदशाधिक पञ्चशतस्य च निदर्शनानां परीक्षणे विहिते एकादशाधिक शते जनेषु संक्रमणं पुष्टीभूतमिति मन्त्रालयस्य सहप्रवक्ता डाक्टर समीर अधिकारी ज्ञापयति। अत्रान्तरे कोरोना संक्रमणं वर्धमानम् अस्ति इत्यतः अवशिष्ट टीकाकरणाः सर्वे जनाः प्रथम द्वितीयातिरिक्त टीकाकरणानि आदातुं मन्त्रालयेन अनुरुद्धाः सन्ति। सर्वकारेण त्रयस्त्रिंशतो निर्माण व्यवसायिनाम् अनुमतिपत्रं निरस्तीकृतं वर्तते। सार्वजनिक निर्माणस्य प्रयोजनाय भौतिक पूर्वाधार यातायात मन्त्रालयात् गृहीतानुमतिपत्रैः व्यवसायीभिः नवीकरणं न कृतमिति हेतोः एतेषाम् अनुमतिपत्रं निरस्तीकृतमिति मन्त्रालयस्य निर्माण व्यवसाय प्रवर्धन शाखया ह्यः सूचनां प्रकाश्य ज्ञापितं वर्तते।